ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। मैत्रेय उवाच। इत्यजेनानुनीतेन भवेन परितुष्यता अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति। श्रीमहादेव उवाच। नाघं प्रदेशबालानां वर्णयेनानुचिन्तये देवमायाभिभूतानां दण्डस्तत्र धृतो मया। प्रजापतेर्दग्धशीर्षिणो भवत्वजमुखं शिरः। मित्रस्य चक्षुषे क्षेत भागं स्वम्बरिशो भगः। पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक्। देवाः प्रकृतसर्वाङ्गा येम उच्छेषणं ददुः। बाहुभ्यामश्विनो पूष्णो हस्ताभ्यां कृतबाहवः। भवन्त्वध्वर्यवश्चान्ये वस्तस्मश्रुर्भृगुर्भवेत्। मैत्रेय उवाच। तदा सर्वाणि भूतानि श्रुत्वा मीठुष्टमोदितम् परितुष्टात्मभिस्तात् साधु साध्वित्यथा ब्रुवन्। ततो मीढ्वान् समामन्त्र्य सुनासीराः सहर्षिभिः। भूयस्तद्देव यजनम् समीढ्वद्वेधसो ययुः। विधाय काट्स्न्येन च तद् यदाह भगवान् भवः। सन्ददुः कस्य कायेन सवनीयपशो शिरः। सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः। सद्य सुप्त इवोत्तस्थौ ददृशे चागृतो मृडम्। तदा विषध्वजद्वेषकलिलात्मा प्रजापतिः। शिवावलोकादभवच्छरद्रत इवामलः। भवस्तवाय कृतधीर्नाशक्नोदनुरागतः। औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन्। कृच्छ्रात् संस्तभ्य च मनः प्रेम विवलितः सुधीः। शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः। दक्ष उवाच। भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः। न ब्रह्मबन्धुषु च वां भगवन्नवज्ञातुभ्यं हरेश्च कुत एव धृतव्रतेषु। विद्यातपोव्रतधरान्मुखतस्म विप्रान् ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक्। तद्ब्राह्मणान् परम सर्वविपत्सुपासि पालः पशूनिव विभो प्रगृहीतदण्डः। योऽसौ मया विदिततत्त्वदृशा सभायाम् क्षिप्तो दुरुक्तिविषिखैरगणय्यतन्माम्। अर्वाक्पतन्तमर्हत्तमनिन्दयापाद्दृष्ट्यार्द्रया स भगवान् स्वकृतेन तुष्येत्। मैत्रेय उवाच। क्षमाप्यैवम् समीढ्वांसम् ब्रह्मणा चानुमन्त्रितः। कर्मसन्तानयामास सोपाध्यायर्त्विगादिभिः। वैष्णवम् यज्ञसन्तत्यैत्रिकपालम् द्विजोत्तमाः। पुरोडासं निरवपन् वीरसंसर्गशुद्धये। अध्वर्युणात्त हविषा यजमानो विशाम्पते। धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः। तदा स्वप्रभया तेषां द्योतयन्त्यादिषोदश। मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना। श्यामो हिरण्यरसनोऽर्ककिरीटजुष्टो नीलालकभ्रमरमण्डितकुण्डलास्यः। कम्बब्जचक्रशरचापगदासि चर्म व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः। वक्षस्य धिश्रितवधूर्वनमाल्युदारहासावलोककलया रमयंश्च विश्वम्। पार्श्वभ्रमद्व्यजनचामरराजहंसः श्वेतातपत्रशशिनोपरिरज्यमानः। तमुपागतमालक्ष्य सर्वे सुरगणादयः। प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः। तत्तेजसा हतरुचः सन्नजिह्वास साध्वसाः। मूर्ध्ना धृताञ्जलिपुटा उपतस्तुरधोक्सजम्। अप्यर्वाग्वृत्तयो यस्य महित्वात्मभुवादयः। यथा मतिगृह्णन्ति स्म कृतानुग्रहविग्रहम्। दक्षो गृहीतार्हणसाधनोत्तमम् यज्ञेश्वरम् विश्वसृजाम् परम् गुरुम्। सुनन्दनन्दाद्यनुगैर्वृतम् मुदा गृह्णन् प्रपेदे प्रयतः कृताञ्जलिः। दक्ष उवाच। शुद्धम् स्वधाम्न्युपरताखिलबुद्ध्यवस्थम् चिन्मात्रमेकमभयम् प्रतिषिध्यमायाम्। तिष्ठन्स्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवान् परिशुद्ध इवात्मतन्त्रः। ऋत्विज ऊचुः। तत्त्वम् न ते वयमनञ्जनरुद्रशापात् कर्मण्यवग्रहधियो भगवन्विदामः। धर्मोपलक्षणमिदम् त्रिवृदध्वराख्यम् ज्ञातम् यदर्थमधिदैव मदोव्यवस्थाः। सदस्या ऊचुः। उत्पत्त्यध्वन्यशरणौरुक्लेशदुर्गेऽन्तकोऽग्र व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः। द्वन्द्वश्वभ्रे खलमृगभये शोकदावेग्यसार्थः। पादौ कस्ते शरणदकदा याति कामोपसृष्टः। रुद्र उवाच तव वरद वराङ्घ्रा वाशिषेहाखिलार्थे यपि मुनिभिरसक्तैरादरेणार्हणीये यदि रचित धियम् मा विद्यलोकोपविद्धम् जपति न गणये तत्त्वत्परानुग्रहेण भृगुरुवाच यन्मायया गहनया पहृतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः नात्मन्श्रितम् तव विदन्त्यधुनापि तत्त्वम् सोऽयम् प्रसीदतु भवान् प्रणतात्मबन्धुः ब्रह्मोवाच नैतत्स्वरूपम् भवतोऽसौ पदार्थभेदग्रहै पुरुषो यावदीक्षेत् ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद्व्यतिरिक्तो यतस्त्वम् इन्द्र उवाच इदमप्यच्युत विश्वभावनम् वपुरानन्दकरम् मनोदृशाम् सुरविद्विक्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः पत्न्यौचुः यज्ञोऽयम् तव यजनायकेन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् तम् नस्त्वम् शयशयनाभशान्तमेधम् यज्ञात्मन्नलिनरुचा दृशा पुनीः ऋषय ऊचुः अनन्वितम् ते भगवन् विचेष्टितम् यदात्मनाचरसि कर्म नाज्यसे विभूतये यत उपसेदुरीश्वरीम् न मन्यते स्वयमनुवर्ततीम् भवान् सिद्धा ऊचुः अयम् त्वत्कथा मृष्टपीयूषनद्याम् मनोवारणः क्लेशदा वाग्निदग्धः तृषार्थोऽवगाढो न सस्मारदावम् न निष्क्रामति ब्रह्म सम्पन्नवन्नः यजमान्युवाच स्वागतम् ते प्रसीदेश तुभ्यम् नमः श्रीनिवास श्रिया कान्तयात्राहिनः त्वामृतेऽधीशनाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पूरुषः लोकपाला ऊचुः दृष्टः किम् नो दृग्भिरसद्ग्रहैस्त्वम् प्रत्यग्द्रष्टा दृश्यते येन दृश्यम् माया येषा भवदीया हि भूमन् यस्त्वम् षष्ठः पञ्चभिर्भासि भूतैः योगेश्वरा ऊचुः प्रेयान्नतेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्यात्मनः अथापि भक्त्येष तयोपधावतामनन्यवृत्त्यानुगृहाण वत्सल जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयात्ममायया रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ब्रह्मोवाच नमस्ते श्रितसत्त्वाय धर्मादीनाम् च सूतये निर्गुणाय च यत्काष्ठाम् नाहम् वेदापरेऽपि च अग्निरुवाच यत्तेजसाहम् सुसमिद्धतेजाहव्यम् वहे स्वध्वर आज्यसिक्तम् तम् यज्ञीयम् पञ्चविधम् च पञ्चभिः स्विष्टम् यजुर्भिः प्रणतोऽस्मि यज्ञम् देवा ऊचुः पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतम् त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने पुमान्शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदवीः स एवाद्याक्ष्णोर्यः पथिचरसि भृत्या नवसिनः गन्धर्वा ऊचुः अंशांशास्ते देवमरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः क्रीडाभाण्डम् विश्वमिदम् यस्य विभूमन् तस्मै नित्यम् नाथ नमस्ते करवाम विद्याधरा ऊचुः त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैस्वैः क्षिप्तोऽप्यसद् विषयलालस आत्ममोऽहम् युष्मत्कथामृतनिषेवक उद्युदस्येत् ब्राह्मणा ऊचुः त्वम् क्रतुस्त्वम् हविस्त्वम् हुताश स्वयम् त्वम् हि मन्त्रः समिद्दर्भपात्राणि च त्वम् सदस्यर्त्विजो दम्पती देवता अग्निहोत्रम् स्वधा सोम आज्यम् पशुः त्वम् पुरागाम् रसाया महासूकरो दंष्ट्रया पद्मिनीम् वारणेन्द्रो यथा स्तूयमानो नदल्लीलया योगिभिर्युज्यहर्तत्रयी गात्रयज्ञक्रतुः सप्रसीद त्वमस्माकमाकाङ्क्षताम् दर्शनम् ते परिभ्रष्टसत्कर्मणाम् कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाक्षयम् यान्ति तस्मै नमः मैत्रेय उवाच इति दक्षः कविर्यज्ञम् भद्ररुद्रावमर्शितम् कीर्त्यमाने ऋषिकेशे सन्निन्ये यज्ञभावने भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् दक्षम् बभास आभास्य प्रीयमाणैवानघ श्रीभगवानुवाच अहम् ब्रह्मा च सर्वश्च जगतः कारणम् परम् ఆత్మేశ్వర ఉపద్రష్ట స్వయం దృగ విశేషణ ఆత్మమాయాం సమావిశ్య సోహం గుణమయీం ద్విజ సృజన్ రక్షన్ హరన్ విశ్వం దధ్రే సంజ్ఞాం క్రియోచితాం తస్మిన్ బ్రహ్మణ్య ద్వితీయే కేవలే పరమాత్మని బ్రహ్మరుద్రౌ చ భూతాని భేదేనాగ్యోను పశ్యతి యథా అపుమాన్న స్వాంగేషు శిర ప్రాణ్యాదిషు క్వచిత్ పారక్య బుద్ధిం కురుతే ఏవం భూతేషు మత్పరః త్రయాణామేక భావానాం యో న పశ్యతి వైభిదాం సర్వభూతాత్మనాం బ్రహ్మన్ ససాంతిమతి గచ్చతి. మైత్రేయ ఉవాచ ఏవం భగవతా దిష్టః ప్రజాపతిపతిర్హరిం అర్చిత్వా క్రతునా స్వేన దేవానుభయతో యజత్ రుద్రం చ స్వేన భాగేన యుపాధావత్ సమాహితః కర్మణో దవసానేన సోమపా నితరానపి ఉదవస్య సహర్త్విగ్భిః ససనావవభృతం తతః తస్మాప్యనుభావేన స్వేనైవావాప్తరాధసే ధర్మ ఏవ మతిం దత్వా త్రిదశాస్తే దివం యయుః ఏవం దాక్షాయణి హిత్వా సతీ పూర్వకలేవరం జగ్యే హిమవత క్షేత్రే మేనాయామితి శుశ్రుమ తమేవ దయితం భూయ ఆవృంక్తే పతిమంబికా అనన్య భావైక గతిం శక్తి సుప్తేవ పూరుషం ఏతత్ భగవత శంభోః కర్మ దక్షాధ్వరద్రుహః శ్రుతం భాగవతాచ్ఛిష్యాదుద్ధవాన్ మే బృహస్పతేః ఇదం పవిత్రం పరమీశ చేష్టితం యశస్యమాయుష్యమఘౌఘమర్షణం యో నిత్యదా కర్ణ్య నరోను కీర్తయేద్ధునోత్యఘం కౌరవ భక్తిభావతః. ఓం స్వస్తి శ్రీమద్భాగవతే మహాపురాణే పారమహంస్యాం సంహితాయాం చతుర్థస్కంధే దక్షయజ్ఞ సంధానం నామ సప్తమోధ్యాయః శ్రీకృష్ణార్పణమస్తు. నమోస్తు తే మహాయోగిన్ ప్రపన్నమనుషాధిమాం యథా త్వచ్చరణాం భోజే రతిః స్యాదనపాయినీ.